नमस्काराः श्रोतृगणाः स्वागतमस्ति अत्र भवताम् समेषाम् आकाशवाण्या सम्प्रसारिते संस्कृत साप्ताहिकी इति नामके साप्ताहिक कार्यक्रमे अहमस्मि भवताम् मित्रम् उद्घोषकश्च पुनीत त्रिपाठी। तावत् आयान्तु कार्यक्रमस्यास्य शुभारम्भम् ससमयम् कुर्मः। साम्प्रतम् चलामः जतिनशर्मणः समीपम् यः स्वीय मधुरकण्ठैः श्रावयति सुभाषितानुभागम्।
सत्येन रक्ष्यते धर्मो विद्याभ्यासेन रक्ष्यते मृज्यया रक्ष्यते रूपम् कुलं वृत्तेन रक्ष्यते। अर्थात धर्म का रक्षण सत्य से, विद्या का अभ्यास से, रूप का स्वच्छता से और कुल का रक्षण मनुष्य के आचरण से होता है।
धन्यवादाः जतिन शर्मणे सुभाषिताय अस्मै। अयि भो मित्राणि, कार्यक्रमस्य एतस्य अवन्ध्य रूपतां सफलीकर्तुं प्रसंगानुभागं प्रतिसरामः। यत्र हि नरेन्द्र दत्त सेमवालेन अवाप्यते एषः प्रभागः।
अथ प्रथमोऽध्यायः। धृतराष्ट्र उवाच, धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः, माम काः पाण्डवाश्चैव किमकुर्वत सञ्जय। सञ्जय उवाच, दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा आचार्यमुपसङ्गम्य राजा वचनमब्रवीत्। पश्येताम् पाण्डुपुत्राणाम् आचार्यमहतीम् च मूम् व्यूढाम् द्रुपदपुत्रेण तव शिष्येण धीमता। अत्र शूरा महेश्वासा भीमार्जुनसमायुधि, युयुधानो विराटश्च द्रुपदश्च महारथः, धृष्टकेतुश्चेकितानः काशीराजश्च वीर्यवान्, पुरुजित्कुन्तिभोजश्च शव्यश्च नरपुङ्गवः, युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान्, सौभद्रोद्रौपदेयाश्च सर्व एव महारथाः। अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम।
धन्यता वचांसि नरेन्द्राय। संस्कृतानुरागिणः श्रोतारः, विगत सप्ताहानां वार्ताः आस्थाय द्रुतवचोभिः स्वीयात्मना कथ्यन्ते साप्ताहिकी वार्ताः। कथं वा प्रसारणं भवति शृण्मस्तावत् सहयोगिनया सुषमा कुमारिणा।
जम्मू कश्मीर राज्ये स्थापित प्रवासी समुदायम् आर्थिक दृष्ट्या सशक्तीकरणाय प्रशासनेन सार्धत्रिंशत् युवजनेभ्यः वित्तीयावसराणि प्रारब्धम्, वित्तीय सहायता प्रारब्धा। रूस देशे त्रिदिवसात्मकाय प्रचल्यमाणाय राष्ट्रपति निर्वाचनाय मतदानं प्रारब्धम्। राष्ट्रपतिना द्रौपदी मुर्मू वर्यया हैदराबादे वैश्विक आध्यात्मिक महोत्सवः शुभारम्भितः। केन्द्रीय गृहमन्त्रिणा अमितशाहेन राष्ट्रिय अन्वेक्षण अभिकरणस्य सौविध्ययुत प्रणाल्यां सुदृढयितुम् आतंकवादं विरुध्य सुव्यवस्थित शाखां शुभारम्भिता। निर्वाचन आयोगेन नैर्वाचनिक अनुबन्ध विवरणाय वेब फलकम् एकं प्रकाशितम्। प्रधानमन्त्रिणा नरेन्द्र मोदिना प्रोक्तं यत् विकसित भारतस्य लक्ष्यं संकुचनं सहैव नैव प्राप्स्यति। एतदर्थं तेन सूरज इति प्रधानमन्त्री सामाजिक उत्थान एवं रोजगार आधारित जन कल्याण इति नामधेयकं राष्ट्रिय फलकम् एकं शुभारम्भितम्।
मे श्रेष्ठाः श्रोतृसमूहाः, अधिगत ज्ञानस्य प्रसारम् उत वा ज्ञानीजनानाम् उपदेशः कथम् अवाप्यते? एतस्य कृते सम्मुखागतैः विशिष्टजनैः, गुरुभिः, प्राध्यापकैश्च सह साक्षात्कारात् जायते। अस्तु तावत्, ज्ञानविज्ञानानुभागे अस्मिन् अद्य अस्माभिः सह उपस्थितास्ति दिल्ली विश्वविद्यालयस्य लेडी श्रीराम महाविद्यालयस्य सहाचार्या डॉ. पंकजाघई महोदया। तया सह संवादं विदधाति मम सहयोगिनी निधे तिवारी।
श्रोतारः आकाशवाण्याः प्रसार्यमाणस्य संस्कृत साप्ताहिकी इति कार्यक्रमस्य ज्ञान विज्ञान विभागे अत्र अस्माभिः सह उपस्थिता अस्ति दिल्ली विश्वविद्यालयस्य लेडी श्रीराम महाविद्यालयस्य सहाचार्या डॉक्टर पंकजा घई महोदया। आकाशवाणी पक्षतः अहम् निधि तिवारी भवत्याः स्वागतम् व्याहरामि।
धन्यवादः निधि मम माम अत्र आह्वयितु।
अस्तु महोदये, साक्षात्कार प्रभागेऽस्मिन् मम प्रथमः प्रश्नोऽयं विद्यते यत् किन्नाम भारतीय ज्ञान व्यवस्था।
निधि, वस्तुतः भारतीय ज्ञान व्यवस्था अस्ति यत्र समग्र भारतस्य समग्र दृष्टया समग्र रूपेण सर्वविध ज्ञानं समाविष्टम् अस्ति। नूतन शिक्षानीत्याम् एतस्य समायोजनम् इदानीम् अभवत्।
आमाम्, अस्तु महोदय, भारतीय ज्ञान व्यवस्थायां कीदृशं ज्ञानं तद् अध्ययनाय च श्रोतांसि कानि सन्ति कृपया प्रतिपादयन्तु।
आम्, निश्चितम्। वस्तुतः भारतीय ज्ञान व्यवस्था एक छत्र स्वरूपम् अस्ति खलु, यस्मिन् बहुविध ज्ञानं वर्तते। वस्तुतः भारतीय ज्ञान व्यवस्थायां वयं व्यवस्थां यदि पश्यामः तर्हि मुख्यतया द्विविध ज्ञानं तत्र दृश्यते। प्रथमं प्रवृत्तिपरकं ज्ञानं, द्वितीयं च निवृत्तिपरकं ज्ञानम्। अस्यां सृष्टौ यत्किमपि ज्ञानस्य ज्ञानाय उपलभते तत्सर्वं प्रवृत्तिपरकं ज्ञानमस्ति। परन्तु यदा प्रवृत्तिपरकज्ञानात् मुक्तिम् अवाप्तुम् पुनश्च अध्यात्मवृत्तिम् वर्धयितुम् वयम् यत् ज्ञानम् अपेक्षयामः तत् ज्ञानम् निवृत्तिपरकम् ज्ञानम् अस्ति। यदि एतद्विविधम् ज्ञानम् वयम् स्वीकर्तुम् इच्छामः तर्हि सर्वप्रथमम् भारतीय ज्ञान व्यवस्थायाम् संस्कृत भाषाम् आधृत्य लिखितानि ग्रन्थाः अस्माभिः दर्शनीयाः। पुनश्च संस्कृतेतर ग्रन्थाः सन्ति ये अन्यासु भारतीय भाषासु लिखिताः सन्ति। पुनश्च अस्माकम् देशे जनजाति विषयकम् ज्ञानम् बहु विशाल ज्ञानम् अस्ति। इतोपि सामान्यतः लोकाचारे यत्किमपि वर्तते तेषाम् तत् ज्ञानम् शास्त्रेषु ग्रन्थेषु निबद्धन परन्तु प्रवर्तते। अतः लोकाचारः अपि संस्कृत भारतीय ज्ञान व्यवस्थायाम् आगच्छति। अतः संस्कृत ग्रन्थानाम्, संस्कृतेतर भाषासु निबद्धानाम् ग्रन्थानाम्, जनजातीय व्यवहाराणाम् लोकाचारम् इति सर्वविध भारतीय ज्ञान व्यवस्थाया एव श्रोतांसि सन्ति।
अस्तु, शोभनम् प्रतिपादितम्। अस्तु गुरुवर्ये, नूतन शिक्षा नीत्याम् भारतीय ज्ञान व्यवस्थायाः योजनेन को लाभो वर्तते महोदये, स्पष्टीकुर्वन्तु कृपया।
एवमस्ति यत् नूतन शिक्षा नीति अस्ति तत्र भारतीय परम्परायाः वर्धनम् पुनश्च भारतीय ज्ञानस्य पुनरस्थापनम् इति अन्यतमः लक्ष्यः अस्ति।
आम्, सत्यम्।
नूतन शिक्षा नीत्याः अतः शिक्षा माध्यमेन यत् ज्ञानम् वयम् दद्मः छात्रेभ्यः कीदृशम् ज्ञानम् भवेत्, यतः ज्ञानस्य निर्माणमपि शिक्षा माध्यमेन मुख्यतया भवति
एव
प्राक्तन कालतः एव। अस्माकं शिक्षा व्यवस्थायां यत् ज्ञानं वर्तते तत्र भारतीय ज्ञान व्यवस्थायाः अभावः दृश्यते। यतः नूतन शिक्षा नीति माध्यमेन सर्वकारस्य प्रयासः वर्तते यत् भारतीय ज्ञान परम्परायाः वर्धनं भवेत्, जनाः अशेष विश्वे जनाः भारतीय ज्ञानेन सम्बद्धाः स्युः। अतः इति आलक्ष्य शिक्षानीत्यामेव भारतीय ज्ञान परम्पराम् आधृत्य पाठ्यक्रमाः योजिताः, विभिन्नानि पत्राणि योजितानि। एकम् उदाहरणम् अहम् यच्छामि, अस्माकमेव महाविद्यालये इदानीं नूतन शिक्षानीत्याम् आधृत्य ये छात्राः पठन्ति तेभ्यः वैदिक गणितम् इति एकम् अन्यतमम् पत्रम् अस्ति। तत् पत्रम् पठित्वा गणितमपि सरलतया पठितुम् शक्यते, पुनश्च अन्तरप्रवेशपरीक्षानाम् कृते बहु सारल्यम् भवति इति छात्राः अनुभवन्ति। अतः एतादृशं ज्ञानं शिक्षायाम् आगच्छति तर्हि छात्राणां कृते उत्तमम्, पुनश्च देशस्य कृते अपि उत्तमम्। इतोपि भारतीय सर्वकारस्य नूतन शिक्षानीतिम् आलक्ष्य यत् प्रयोजनमस्ति तत् प्रयोजनमपि सफलीभूतं भवति।
अस्तु गुरुवर्ये, यतोहि वयं सर्वे जानीमः यत् विज्ञानस्य युगो प्रवर्तते, तर्हि भारतीय ज्ञान व्यवस्थायाः योगदानं साम्प्रतिके समये उत्तम विज्ञाने कथं भवितुं शक्यते, कृपया।
आम्, यथा निधि, यथा मया पूर्वमेव उक्तम् यत् सर्वविध प्रवृत्ति परकं ज्ञानम् अस्माकं चिन्तकैः चिन्तितम् आसीत्, ज्ञानं प्रस्तुतम् अपि
सत्यम्।
तत्रैव ज्ञान विषये अपि चर्चा अस्ति, परन्तु विज्ञान विषये अपि भारतीय चिन्तकैः बहु अन्वेषणं कृतम्। अस्माकं पार्श्वे अद्यतनस्य विज्ञानस्य ये के अपि विषयाः सन्ति तेषु सर्वेषु अस्माकं चिन्तकैः अस्माकं भारतीयैः विद्वद्भिः चिन्तनं कृतं, तत्र अस्माकं कृते ग्रन्थाः अपि लिखिताः। उदाहरणस्वरूपेण आर्यभटीयम्, आर्यभटीयं खगोलशास्त्रस्य गणितशास्त्रस्य अद्भुत पुस्तकं ग्रन्थः अस्ति, यतः ये जनाः कथयन्ति यत् सूर्य स्थिरः ग्रहाचराः। कोपर्निकस् एतस्य क्रेडिट् इत्युक्ते कोपर्निकस् पाश्चात्य विद्वान् अस्ति तस्मै दीयते, परन्तु अस्माकम् आर्यभट्ट महोदयाः बहु कालपूर्वमेव एषः सिद्धान्तः दत्तवान् खलु, एतत् सिद्धान्तं दत्तवान्। अतः एवमेव रसायनशास्त्रे, गणितशास्त्रे, औषधीशास्त्रे, चिकित्साशास्त्रे, बहुविध इतोपि ग्रहाणां विषये, अन्तरिक्षविषये यत् कुत्र अपि वयं पश्यामः विज्ञानविषयः एव पश्यामः। अतः यः कोऽपि विज्ञानविषये प्राक्तन ज्ञानं प्राप्तुमिच्छन्ति, अन्वेष्टुमिच्छति, तर्हि तस्य कृते बहु अपार ज्ञानविध ग्रन्थाः तत्र सन्ति, तान् पठित्वा इतोऽपि ज्ञान वर्धितुं शक्यते, पुनश्च विज्ञानस्य नूतन स्वरूपमपि प्रस्तौतुं शक्यते।
अस्तु गुरुवर्ये, आकाशवाण्यै प्रदत्ताय समयाय धन्यतां प्रकटयामि अहम्। भवतीनां ज्ञानवचोभिः वयं सर्वे अनुगृहीताः जाताः स्मः। नमो नमः।
नमो नमः। धन्यवादः निधि, बहु धन्यवादः।
प्रणमामि।
नमस्ते।
कथं वा ज्ञानेन परिपूर्णम् एनं साक्षात्कार विभागं श्रुत्वा भवतां मनसि एका वार्ता तु समागता यत् कियत् ज्ञानप्लावितः एष प्रभागः जातः। श्रोतारः, किं मनः भीतः जातः? चिन्ता वार्ता नास्ति। यो हि का चिन्ता मम जीवने यदि हरि, अर्थात् अस्माकं सहयोगी पुरुषोत्तम शर्मा वदति यत् भवन्तः कुत्रचित् ज्ञानार्जनेन वञ्चिताः जाता, साम्प्रतं कुत्रतः ज्ञानप्राप्तिं कर्तुं शक्यते, आयान्तु श्रूयन्ताम् संगोष्ठिषु कार्यशालासु किं किं जातम्।
श्री लाल बहादुर शास्त्री केन्द्रीय संस्कृत विश्वविद्यालयस्य साहित्य विभागेन सोमवासरे अर्वाचीन संस्कृत साहित्ये शोध सम्भावना अथ आधुनिक काव्यशास्त्रे नवीनायामाश्चेति विषये विशिष्टं व्याख्यानम् आयोजितम्, यत्र प्रोफेसर राधावल्लभ त्रिपाठी वर्यः सारगर्भितं व्याख्यानम् उपस्थापयत्। श्री लाल बहादुर शास्त्री केन्द्रीय संस्कृत विश्वविद्यालयेन भारतीय भाषा समित्या च संयुक्त तत्वावधाने त्रिदिवसीया कार्यशाला समायोजिता। बुधवासरे सम्पन्नायां कार्यशालायां ध्येयवाक्य विश्लेषणमिति विषये विद्वद्भिः प्रतिभागिता कृता। केन्द्रीय संस्कृत विश्वविद्यालयस्य भोपाल परिसरे मार्च मासस्य एकविंश्याम् एकं परिचर्चा सत्रम् आयोजयिष्यते। अस्मिन् परिचर्चा सत्रे जैन साहित्यस्य उपयोगिता शोध सम्भावनेति विषये चर्चा भविष्यति। केन्द्रीय संस्कृत विश्वविद्यालयस्य जयपुर परिसरे सप्तदिवसीया प्राकृत प्रशिक्षण कार्यशाला समायोज्यते। इयं कार्यशाला रविवासरे पूर्णा भविष्यति।
सुष्ठोक्तं भवता, धन्यवादाः। आशां कुर्मः भवद्भिः दिग्दर्शन प्रभागे समुदीरिताः कार्यक्रमाः लिखिताः अंकिताश्च। यदि केनापि जनेन न लिखितम् तस्य कृते तु मम एका वार्ता अस्ति। अम्लं द्राक्षाफलम् अवगम्यते न वा? चलामस्तावत् एकां कथामपि अनेन शीर्षकेणैव श्रावयति बालवल्लरी प्रभागे साधना शर्मा।
बाला अद्य अहम् एकाम कथाम श्रावयामि। तथा यह शीर्षक अस्ति शिगालः द्राक्षाफलम् च। एकः शिगालः आसीत्। सः वने अत्र तत्र भ्रमति स्म। एकदा सः वृक्षे द्राक्षाफलम् दृष्टवान्। सः तत् खादितुम् इच्छति स्म। फलम् उपरि आसीत्। सः तत् प्राप्तुम् कूर्दति। एकवारं कूर्दति किन्तु फलम् न स्पृशति। पुनः एकवारं कूर्दति किन्तु फलम् न स्पृशति। पुनः पुनः कूर्दति तथापि फलम् न प्राप्नोति। अन्ते क्लान्तः भवति। कथयति च अहो द्राक्षाफलम् तु अम्लम् भवति। कः अम्लफलम् खादति? अहम् वृथाश्रमम् करोमि। तत् कथयति अन्यत्र गच्छति च। अत एव बालाः यत् वयम् प्राप्तुम् न शक्नुमः तत् वयम् वृथा इति कथयामः।
अस्माकम् ऐक्यभावयुताः श्रोतृगणाः अतीव दुष्कर मनोरथानां पूर्त्यर्थं स्मृतौ लिखितमस्ति साधनमेकं श्रेष्ठम्। अपि च मनोरथानां पूर्तये पारस्परिक सहयोगः घनिष्ठता ऐक्यभावस्य अपेक्षिताः वर्तन्ते। अस्तु, एक भारत श्रेष्ठ भारत इत्याख्ये प्रभागेऽपि नानाविधानवाक्यानि ऐक्यभावयुक्तासु भाषासु कथ्यते सहयोगिनया निधिना।
प्रथमं वाक्यमस्ति, मिथिला चित्रकला बिहारस्य मिथिला क्षेत्रस्य एका प्रमुखा कला परंपरा वर्तते। पहला वाक्य है, मिथिला चित्रकला बिहार के मिथिला क्षेत्र की एक प्रमुख कला परंपरा है। मैथिली में मिथिला चित्रकला बिहार के मिथिला क्षेत्र के एकता प्रमुख कला परंपरा अछि। द्वितीयं वाक्यमस्ति, चित्रमिदं मुख्यतया महिलाभिः क्रियते, तस्मिन् प्राकृतिक वर्णानां प्रयोगः भवति। दूसरा वाक्य है, यह चित्रकला मुख्य रूप से महिलाओं द्वारा बनाई जाती है और इसमें प्राकृतिक रंगों का उपयोग किया जाता है। मैथिली में ई कला मुख्यतः महिला द्वारा कैल जायल अछि आ एही में प्राकृतिक रंगक प्रयोग कैल गेल अछि। तृतीयं वाक्यम् अस्ति, एषा कला 60+19 वर्षे मधुबनी जनपदस्य साध्वी स्वर्गीय महासुन्दरी देवी इत्यनया आरब्धा, यया इयं वर्णचित्रकलायाः परिचयः प्रदत्तः। तीसरा वाक्य है, इस कला का आरंभ 1960 में मधुबनी जिले के एक साध्वी स्वर्गीय महासुन्दरी देवी के साथ हुआ था, जिन्होंने रंगीन चित्रकला का परिचय दिया। मैथिली में ई कला के शुरुआत 1960 में मधुबनी जिला के साध्वी स्वर्गीय महासुन्दरी देवी सँ भेल छल, जे रंगीन चित्रकला के परिचय देलखिन। धन्यवाद।
प्रतिपादितं सम्यक् भवत्यै, साधुवादाः। मित्राणि, वियोगेन व्यथितः जातः मे मनः, परञ्च किं कर्तुं शक्यते, गमनवेला तु आगता। तथापि आगामि सप्ताहे कदाचित् नूतनानङ्कान् अवलम्ब्य फलोदयान्ताय अर्थात् कार्यक्रमावसानपर्यन्तं भवद्भिः सह पुनर्मेलनं करिष्यामः। भवन्तः सर्वे एतदनन्तरं स्वीय जिज्ञासां प्रतिपुष्टि प्रक्रियाम् अस्मभ्यं प्रेषितुं शक्नुवन्ति। अस्माकम् ईमेल संकेतो वर्तते nhdsanskrit@gmail.com इति। पुनर्मिलामः इत्युक्त्वा विरमामि, नमामि च।